Rajayoga Sara Sutram of 9 deals with the principles of Rajayoga and consists 103 sutras. The 8th chapter emphasizes Bhagavan's teaching. A list of contents prepared by Bhagavan is presented in the compilation. Ghanta Shatakam. When Nayana was staying in Udupi in Karnataka, the local pandits wanted to witness the poetic talent of Nayana. Therefore, he composed 100 verses in 1 hour and recited it before them. This text gives the cream of the teaching of the three main schools of philosophy, Dvaita, Visishtadvaita and Advaita. These verses are copied by Bhagavan and is presented in the compilation. Uma Sahasram. Ganapati Muni felt that it was by the grace of the Divine Mother that he had obtained a perfect Guru, Bhagavan Ramana Maharshi. In gratitude, he wanted to compose 1,000 verses in praise of the Divine Mother. He set for himself certain regulations and the poem had to be completed within 20 days as a part of his tapas penance. The presence of Bhagwan helped the Muni to naturalize his supernormal condition, for ever since his momentous meeting with Bhagwan, Nayana was constantly subject to cascading spiritual experiences and floods of superhuman delight. One of those days, it so happened that at an unusual hour, the Muni experienced the pangs of hunger. At the same time, a girl appeared before Echamma, who was in the town, and apprised her of the Muni's plight and vanished. Echamma promptly prepared food and sent it up the hill to the Muni through a boy. Day by day, the composition of verses went on. A boil appeared near the nail on the right hand finger of Nayana and the pain became unbearable. A doctor, one Punyakoti from Madras, appeared on the scene with all his equipment and a minor operation set it right. The previous night, the doctor had a dream in which he was directed to go and give medical help to the Muni on the hill of Arunachala. Because of the setback, more than 200 verses still remained to be composed. They had to be completed within that night, and so Bhagavan stayed with Nayana overnight. Vasudeva Sastri, Narayana, Ganapati and three other scribes took down the verses then and there as dictated by the Muni Nayana Kavyakanta. The presence and inspiration of Bhagavan was at its zenith and the verses flowed freely. All the while Bhagavan was sitting there with eyes closed, and on the completion of the work, Bhagavan opened his eyes and inquired Nayana, "Whatever I said, has it been taken down?" This question took all by surprise. Nayana said, "Yes. Receiving all that has been granted by thy grace, I have just completed the work." That is why at the end of the first recension of the great work Uma Sahasram, the poet wrote, "I was able to accomplish this great work on time only because of the grace of my guru Ramana." This is the magnum opus of Nayana. It is available in print with the Sanskrit commentary. The above is an extract from the book Bhagavan and Nayana. A portion of the Uma Sahasram in Grantha script copied in Bhagavan's handwriting is presented in the compilation. Photo description: Pachayamman Temple in North Eaton's eastern slopes of Arunachala, where the Uma Sahasram was dedicated to the Universal Mother in the presence of Bhagavan.
Raja Yoga Sara Sutra Nayana. राजयोगसारसूत्रम् प्रथमः खण्डः प्राणो गति शक्तिमान् वायुः एकत्र स्थिति एव चलति तरङ्गैः उच्छ्वासनिःश्वासौ निभालयन् गतिशक्तिद्वारा उपासीत वायुम् ततः तेजः शक्ति रुद्रिक्ता स्यात्। प्राणः तेजः शक्तिमान् इन्द्रः। तेजः शक्ति इन्द्राणि। नाडीशक्तिषु असाधारणम् उष्मान् अनुभवन् निभालयन् इन्द्राणि द्वारा उपासित इन्द्रम्। ततः स्वरशक्तिः रुद्रिक्ता स्यात्। प्राण स्वरशक्तिमान् रुद्रः। स्वरशक्तिः गौरी। सूक्ष्मांतर स्वरम् निभालयन् गौरी द्वारा उपासित रुद्रम्। सूक्ष्मांतर स्वर एव प्रणव उच्यते वेदांतेषु। स बहिश्च व्यापकः। रुद्रोपासनेन क्षेत्रज्ञस्य चितिशक्तौ प्रतिष्ठां विन्देत् पाके समाप्ते। स उत्तमः पुरुषार्थः। तस्यां स्थितौ नित्यम् अप्रयत्नं तपः। तपसः पाकात् भवन्ति पूर्वदृढसङ्कल्पानुरूपा सिद्धयः। अवतारपुरुषाणां कार्यानुरूपाः। नित्यतपसः सिद्धय न बन्धाय प्रमाद असम्भवात्। आद्यासु तिसृषु तपोभूमिषु ता इच्छत देवतानुग्रहश्चेत्। बन्धाय पुनः अतपतः प्रमाद असम्भवात् इति प्रथमखण्डे एकविंशति सूत्राणि। अथ द्वितीयः खण्डः। व्यापशक्तिपक्वानां भूतानां सूक्ष्मरससारः प्राणः। तस्य हृदयम् आयतनम्। तस्यैव चित्ताख्या केषाञ्चित् भाषायाम्। तदुपाधी आत्मा जीवः। चितिशक्तौ निष्ठया परमेश्वरः अनुभूयते। सा हि परमेश्वरस्य प्राणोपादेः। गुणशक्ति कर्मद्वारैः बहिर्वस्तूनाम् अनुभूतिः। प्राणश्च अनुभूयते। सा हि प्राणस्य परमेश्वरानुगृहीतस्य। ईश्वरानुभूतिश्च अखण्डप्रकाशवित्तिः। प्राणानुभूतिश्च अखण्डरसवित्तिः। तद् उभयम् अविभाज्यम् लिङ्गम् निष्ठायाः। इति द्वितीयखण्डे दशसूत्राणि। अथ तृतीयः खण्डः। प्राणस्य प्राणापानव्यानोदानसमानाः पञ्चक्रियाविभूतयः। प्राणस्य उच्छ्वासनिःश्वासक्रियावती विभूतिः स्वशब्देन व्यवह्रियते। विसर्जनक्रियावती अपानः। चलनक्रियावती व्यानः। भाषणक्रियावती उदानः। पचनक्रियावती समानः। मूलप्राणस्य शक्तिविशेषा एव एतेन खण्डाः। मूलप्राणस्य श्रेष्ठ इति अपरं नाम। तस्य प्रथमा विभूति उपासनेषु मुख्या। इति तृतीयखण्डे नवसूत्राणि। अथ चतुर्थः खण्डः। प्राणस्य क्रियाशक्तिः प्रत्युद्गच्छेत् तद् एकं तपो यथोक्तम्। उदानस्य अन्यत्। व्यानस्य इतरत्। भाषणक्रियायाः सकलक्रियाणां च उपासनाभ्यां तेन अतिरिच्यते। क्रियोपासनं च कुर्वतः क्रियायाम् एव दृष्टिः। इति चतुर्थखण्डे पञ्चसूत्राणि। अथ पञ्चमः खण्डः। मूलाधारात् आशिर एका सूक्ष्मा नाडी। सा सुषुम्ना। शिरसः आहृदयं सैव पुनः लम्बते तस्य अमृताख्या एकस्य एव पश्चात् पुरस्य द्वौ मार्गौ विद्येते सुषुम्नायाः सव्यापसव्ययोः ईडा पिङ्गला नासापुटान्तगे तयोः सव्यापसव्ययोः गान्धारी हस्ति जीवे नेत्रान्तगे अनयोः सव्यापसव्ययोः पूषालम्बूसे श्रोत्रान्तगे षडपि शिरोव्याप्य तत एव लम्बन्ते स्वावसानस्थानपर्यन्तम् ताः एताः सप्तनाडयः सप्तजिह्वा आधारवेदिकस्य तेजसः सप्तजिह्वा एव सप्तार्चिषः नाभिम् नाडीनाम् जन्मस्थानम् एके देहमध्यकन्दस्य तावत्पर्यन्तव्याप्तेः भक्तिः स्वव्यवहारः देहमध्यकन्दस्य मूलस्थम् पर्व मूलाधारः मध्यस्थम् स्वाधिष्ठानम् अग्रस्थम् मणिपुरम् नाडी तन्तुजालवंशस्य कन्दात् उपरि चतुर्थम् पर्व अनाहतम् हृदि पश्चात् पञ्चमम् विशुद्धम् कण्ठे षष्ठम् आज्ञाख्यम् शिरः कुहरे अग्रम् सहस्रारम् अत्र वंशे सुषुम्नया प्रवहन्तीम् मूलाधारस्ततेजसः शक्तिः कुण्डलिनी तस्याः ऊर्ध्वमुख्या अभिमुखेन अधश्चिन्तनध्यानम् अत्र निमीलिते नेत्रो गगनात् शीर्षम् प्रवहन्तीम् शक्तिम् आदितः भावयेत् ततः ताम् नाडीचक्रे अवतरणक्रमेण मूलाधारम् अथ अभ्यासबलात् तेजसी प्रतिष्ठाम् विन्देत अनन्तरम् स्वरचिति शक्तिनिष्ठा यथा पूर्वम् इति पञ्चमे खण्डे षड्विंशति सूत्राणि अथ षष्ठः खण्डः अमृतया प्रवहन्ति धीः ज्ञानशक्तिः ताम् शिरस्त आज्ञाचक्रम् अवतारयेत् ततः विशुद्धम् ततः हृदयस्य दक्षिणतः पुरोभागस्थम् दहरम् तत्र निष्ठा क्षितिशक्तौ निष्ठा तु नातिरिच्यते सोऽयम् तपसः अन्यप्रकारः इति षष्ठः सूत्राणि अथ सप्तमः खण्डः अथातः चतुर्विधो अन्यः प्रकारः द्रष्टिम् विषयेभ्यः समाहृत्य दृग्दृश्ययोः अन्तराले स्थापयेत् सा इयम् आकाशोद्गीतविद्या अनन्तरम् केवले द्रष्टरि प्रतिष्ठाम् अभ्यसेत् कथम् पश्यामि इति तत्र प्रथमो विचारः कः पश्यति इति द्वितीयः एष अहम् पश्यामि इति निष्ठा अज्ञानिनः दर्शने विषयः प्राधान्येन अवतिष्ठते द्रष्टा दर्शनञ्च अध्याह्रियते तस्य प्रमिते वाक्यत्वे योगिनः दर्शने द्रष्टुः प्राधान्यम् विषयो दर्शनञ्च अध्याह्रियते तस्याः प्रमिते वाक्यत्वे द्रष्टौ वा प्रतितिष्ठेत् तस्य दर्शने दर्शनम् एव प्राधान्येन अवतिष्ठते विषयः द्रष्टा च अध्याह्रियते तस्याः प्रमिते वाक्यत्वे। द्रष्टरि द्रष्टौ वा प्रतिष्ठितः अनन्तरं कंठाया वतरेत्। तत्र इन्द्रियो नौ प्रतिष्ठां विन्देत्, ततः हृदयाय अवतरेत्। तत्र क्षेत्रज्ञे क्षेत्रज्ञस्य चितिशक्तौ वा प्रतिष्ठां विन्देत्, तस्याः स्थितेः पुरुषार्थत्वं महाभाग्यं च प्राग्वत्। इति सप्तमे खण्डे एकोनविंशति सूत्राणि। अथ अष्टमः खण्डः, केवलो विचारः अन्यः पन्थाः। अहं स्फूर्ति मूलान्वेषेण विद्यया, अहं स्फूर्तौ प्रत्यग्गत्यावतरेण वा। विचारयन् अनाहतं तत्तेजेन उष्मणा हृदयस्य नाडीबन्धं शिथिलयेत्, तत्त्वज्ञानेन अभिमानबन्धम्। अत्र च निष्ठा पुरुषार्थ महाभाग्यानि प्राग्वत्। इति श्रीभगवन् महर्षि रमणान्तेवासिनः वासिष्ठस्य नरसिंहसूनोः गणपतेः कृति इयं राजयोगसारसूत्राख्या समाप्ता। घण्टाशतकं काव्यकण्ठ गणपतिमुनि। श्री घण्टाशतकं मङ्गलाचरणं यं विदन्ति शितं केशं हरेः अतुलतेजसः, यः प्रलम्बासुरं हत्वा चक्रे लोकस्य मङ्गलम्, बलेन विस्मिता यस्य पृथ्वी सचराचरा, कृष्णस्यापि च पूज्यो यो बभूवाग्रजतां गतः। सङ्कर्षणस्यांशम् अनन्तशक्तिम् अनन्तनामानम् अमुं नमामि। रामतृतीयम् रमणीयगात्रम् रमानिवासाननापुण्डरीकम्। अथ तत्त्वम् प्रवक्ष्यामो यस्य ज्ञानात् विमुच्यते, कलौ मन्दमतीमर्त्यः तितीर्षुः भवसागरम्। करपादादिसंयुक्तो योऽयं देह प्रदर्श्यते, किं सोऽहम् अथवा प्राणः किं चेतः किमुतेतरत्। ममेशस्य च सम्बन्धः कीदृशः केन शोभितः, अहं कुतः समायातु गमिष्यामि च कुत्र वा। स्वतन्त्रं परतन्त्रो वा दासो वंश स एव वा, कृता इत्यादयः प्रश्ना विद्वद्भिः श्रोतुमिच्छति। उत्तराणि तु दत्तानि तैः तैः प्राज्ञैः पृथक् पृथक्, तेन सङ्कीर्णमतयो भवन्ति तनुधारिणः। एवं तत्त्वे विप्रकीर्णे तैः तैः आचार्यभाषितैः वदाम एकं निर्धार्य, यच्छ्रेयो यच्छ्रुतं परम्। प्रकाशमाना भूतेषु सर्वावस्थासु सर्वदा सर्वोत्तमा विजयते चित् एका सर्वमङ्गला। यच्च भास्करबिम्बस्थः परमात्मा समीरितः, हृदये यो अस्मदादेश्च भेदाभावतयोः श्रुतः। आत्मनः परमस्यापि जीवस्य च विदा यदि आत्मत्वम् उभयोः सिद्धे कथं वैजात्यशालिनो। प्रज्ञानत्वं श्रुतं लक्ष्म ब्रह्मणः परमात्मनः, जीवेऽपि दृश्यते यत्तु अस्मिन् चैतन्य रूपिणि। तत्त्वमस्यादिवाक्यानाम् अर्थस्यैवं भविष्यति, ऋक्संहिता ये पूर्वं ऋषयो मन्त्रदर्शिनः। ते तु तुष्टुः आत्मानम् ईश्वरत्वेन धैर्यतः, आम्भृणी वामदेवश्च निदर्शनम् उदाहृतौ यावत् देहे स्वविभ्रान्ति तावत् भिन्नोऽहम् ईशतः यदात्मानम् विजानामि तदासौ अहम् न संशयः अन्तर्यामी न ईशानम् वदन्त्यन्येऽपि तद्विदः तन्मते प्राणचित्तादे जीवत्वम् परिकल्पितम् अन्तर्यामी स्वयम् जीवः शङ्करेणाभिभाषितः एवम् तत्त्वेषु विज्ञाते कलहः को नु विद्यते तस्मात् सर्वेऽपि सम्पूज्य एषमात्मा हृदि स्थितः आत्मनः परमम् स्थानम् हृदयः सम्प्रगीयते हृदयम् यन्त्रसङ्काशम् आत्मा विद्युम् समोमतः आत्मनो हृदये चेष्टा यन्त्रे चेष्टा च विद्युतः अस्माकम् हृदयम् प्रोक्तम् जीवस्यायतनम् महत् सूर्यस्य मण्डलम् प्रोक्तम् ईशस्यायतनम् महत् एतत् विस्तृतम् आकाशम् अखण्डायतनम् महत् तिस्रस्तु देवता श्रेष्ठा सर्ववेद प्रभाषिता तत्राग्निम् प्रथमम् विद्धि यो भूलोकपति स्मृतः इन्द्रम् द्वितीयम् जानीहि भुवलोकपतिस्तु यः वायो इन्द्रस्य तुल्यत्वा वायुः वात्र द्वितीयतः तृतीय सविता प्रोक्तः सुवर्लोकाधिनायकः अथवा सवितैव एको देव त्रिजगतः पति तस्यैव तेजो गगने भजते शक्र रूपताम् पृथिव्याम् अग्निरूपत्वम् हृदये चात्मरूपताम् तेजो बहिर्गतम् प्राहुः अग्नेन्द्ररविरूपकम् तदेवान्तसमाविष्टम् आत्मेति परिगीयते आदित्यानाम् द्वादशानाम् द्वादशेन्द्रियरूपता एकादशानाम् रुद्राणाम् दशप्राणात्मरूपता वसूनाम् गीतमष्टानाम् लोकात्मत्वम् मनीषिभिः लोकास्तु वसवः प्रोक्ता आदिस्त्यस्यादिदैवतम् अधिभूतम् श्रुता रुद्रा अध्यात्मम् जीव उच्यते आदित्यानाम् अहम् विष्णु इत्थम् भगवता स्मृतः तस्मात् आदित्य एवासौ योऽयम् विष्णु प्रगीयते पाणिः सर्वे शितुः कालः सशिल्पी परमो मतः तन्तुत्वष्टाम् आदित्यम् मुनयः सम्प्रचक्षते वेदस्य माता शब्दात्मा प्रणवात्मा परात्परा परमेशस्य वागेव तद्देवः सवितायतः येन सर्वम् विसृजति भुवनक्षेमहेतवे तत्वायु इन्द्रियम् मित्र तद्दैवतमुदाहृतम् येन च आदाति भुवनम् सकलम् प्रलयेत् प्रभुः इन्द्रियम् रसनाख्यम् तत् तद्देवो वरुणो मतः अन्तर्यामीति यः सर्व भूतानाम् हृदयस्थितः जीवसपाद ईशस्य सोऽशः आदित्य उच्यते सोमम् आविश्य यद्रेतः सर्वसर्गप्रवर्तकम् तल्लिङ्गम् परमेशस्य सधातादित्य उच्यते येन जिग्रति भूतेशः सर्वेषाम् कर्मवासनाः तद्ग्रहणम् अर्यमात् तस्य देवता पितृनायकः शुभम् वापि अशुभम् कर्मम् तेन घ्रातम् मनीषिणा शक्तिमासाद्य परमम् कल्पते जन्मने पुनः प्रेरितम् तु अन्तरिक्षाय यथा वस्तु बलम् गतम् पुनः निपतितम् क्षोण्याम् उपघात यकल्पते प्रेरितं तु अन्तरिक्षाय यथा वस्तु बलं गतं पुनः निपतितं क्षोण्याम् उपघाताय कल्पते एवं कर्म दिवं यातं घ्रातं देवेन तत्त्वतः पुनर्निपतितं क्षोण्याम् देहबन्धाय जायते इन्द्रियं श्रवणं नाम यदीशस्य प्रकीर्तितं विवस्वद् आख्यमादित्यं मुनयः सम्प्रचक्षते सर्वस्य शब्दजालस्य सश्रोता प्रथमो मतः यथात्मा प्रथमः श्रोता वचसाम् आत्मनस्तु इह तथैव भगवान् श्रोता भगवत् वचसाम् पुरा विवस्वान् प्रथमः श्रोता वक्तास्तु सवितादिमः इमम् एवाशयम् कृत्वा हृदये भगवान् हरिः इमम् विवस्वते योगम् प्रोक्तवानहम् अर्जुन विवस्वान् मनहे प्राव इत्यादि वयम् जगादयः विद्युत्रूपम् परम् ज्योति नयनम् परमेशितुः अथवा सकलम् ज्योति नयनम् सम्प्रगीयते वृत्राख्या तमसः प्रोक्ता शक्राख्या ज्योतिषस्तथा तस्मात् इन्द्रस्मृतो नेत्रम् ईशस्य परमात्मनः देवानाम् अस्मदादीनाम् भूतानाम् च समन्ततः आलोकसाधनम् ज्योति सहस्राक्षः प्रगीयते इन्द्रियाणाम् वरम् चक्षु देवानाम् वासवो वरः यः चक्षुवासवम् वेद स वेद सकलम् जगत् अक्ष्णोः अन्तः समाविष्टम् आदित्यम् वासवात्मकम् मण्डलीम् वित्त्वा प्रयाति परमाम् गतिम् पूषाणाम् य आदित्य तम् वदन्ति त्वत् इन्द्रियम् स पुष्णाति शरीरम् वै सर्वदा तु शरीरिणाम् भगो मनः भगो लक्ष्मी भगो रत्नम् समीरिते भगः कामः समाख्यातो भगो माहात्म्यमुच्यते भग एव स्मृतम् वीर्यम् भगो यत्नः समीरितः तद्यत्वात् परमेशस्य भगवत्त्वम् उदीर्यते प्रत्यग्दृशाम् मुनीनाम् च भगवत् शब्द ईष्यते भगो नाम एव आदित्यो मनोरूपः प्रकीर्तितः श्रीकामस्य प्रयत्नस्य माहात्म्यम् च पृथक्विदम् सिद्धानाम् ज्ञानयुक्तानाम् प्रतितिष्ठितम् चेतसि यत्तु बुद्धात्मकम् प्रोक्तम् सर्वेषाम् उत्तमम् बुधै ऋषीकम् तस्य देवस्तु ऋषीकेशो हरिस्मृत सर्वेषाम् बुद्धिरूपेण स विष्णु हृदि संस्थितः बुद्धिपराचि संसारम् प्रवर्तयति देहिनाम् तस्मास्थितिकरम् विष्णुम् प्राहुशास्त्रविदो जनाः बुद्धि एव परम् ज्ञानम् या प्रतीचि मनीषिणाम् तद्दाम परमम् प्रोक्त सा चित्तद्ब्रह्म तन्महः एवम् द्वादश च आदित्या व्याख्याता तत्त्वदर्शिनः प्रवरेण वसिष्ठानाम् नारसिंहस्य सूनुना एतेषाम् हेतुभूताये प्राणा एकादश स्मृता भूतात्मका ताम् भूतेश विभूति प्राहु उत्तमा श्लोक 61 रुद्राणाम् भूतरूपाणाम् रवीणाम् इन्द्रियात्मनाम् एकत्वम् यो विजानाति तत्त्ववेत्ता स उत्तमः नेत्रेन्द्रियस्य विज्ञाने भूतम् अग्निः प्रकीर्त्यते सूक्ष्मम् कनीनिकावर्ति यत्किञ्चित् प्रोक्तम् इन्द्रियम् अग्निस्थानविशेषेण ऋषिकत्वम् गतो यथा न विद्यते नयनतः सूर्याद्रो न विद्यते आपः स्थानविशेषेण वरुणाख्या भजन्ति हि आकाशस्थानभेदेन विवस्वानिति गीयते पृथ्वी स्थान भेदेन प्रोक्तो मुनिभिः अर्यमा वायु स्थान विशेषेण पुषाणाम विधीयते। अग्निः कालात्मको यस्तु नाशकारी क्षणे क्षणे स एव त्वष्टुनाभूत् स्थानभेद प्रसङ्गतः सोमयेव स्थानभेदाद्दातानामभिधीयते घर्म एव स्थानभेदात् मित्रोनामभिधीयते यज्वैव स्थानभेदेन गीतांशो मुनिसत्तमै ब्रह्मण सापि नामायो रुद्रो वेदेषु विश्रुतः वाणीमयो गणपति स एव स्थानभेदतः आदित्यसवितानां गीतः शास्त्रार्थकोविदैः बुद्धेश्च मनसश्चापि तत्त्वम् एकम् उदाहृतम् सङ्कल्पो मन इत्युक्तो निश्चयो बुद्धिरुच्यते द्वयोः त्रयोः मूलत्वम् अहङ्कारः प्रगीयते यथा पावकभूतेन नयनेन्द्रियसम्भवः तथा अहङ्कारभूतेन बुद्धिमानससम्भवः लक्ष्मीरूपो भगो यस्तु विष्णोय बुद्धिरूपकः अहङ्कारस्थानभेदात् भजते तद्वयात्मताम् द्विशरीरो हि अहङ्कार शुद्धो शुद्ध इति श्रुत देहादिविषयो शुद्ध शुद्ध स्वात्मैकगोचरः अशुद्धान्मन उत्पन्नम् शुद्धाद्बुद्धिसमुद्भवः तस्माद्रुद्रात्मकौ प्रोक्तौ भगविष्णोभौ अपि शुद्धाशुद्धो द्विधा प्राज्ञे योऽहङ्कार उदाहृत अर्धनारीश्वरम् विद्धि तमेवाखिलकारणम् अशुद्धाहङ्कृतिमाया शुद्धोऽहङ्कार ईश्वरः मनोमाया च मार्गौ या न भिन्ने तत्त्वदर्शिनाम् बुद्धिशुद्धादहङ्कारात् कदाचन न विद्यते आदित्यानां च रुद्राणाम् एवम् ऐक्यम् निरूपितम् शिवस्य केशवस्यापि शुद्धस्यैक्यम् ततोऽभवत् वसः सकलालोका ऋषीकम् सकलम् हरिः भूतम् समस्तम् रुद्रस्तु तिस्र एता हि मूर्तयः दिशश्चतस्रो वक्त्राणि यस्य विश्वात्मनः प्रभो स वै चतुर्मुखो ब्रह्मा लोकात्मा सम्प्रकीर्तितः यद्यत् सन्दृश्यते स्थूलम् तत्तद् ब्रह्मा चतुर्मुखः तत्तद् जनार्दनो विष्णु यद्यत् सूक्ष्मम् प्रपश्यति परमाणुमयो रुद्रो यद्यद्भूतम् हि कारणम् त्रयाणामपि अधिष्ठानम् परम् ब्रह्मेति गीयते आकाशवत् सर्वगतम् तत्तेजसमुदाहृतम् अस्माकम् हृदये यत्तु देवानाम् हृदये च यत् तच्च बिम्बे भगवत सूर्यस्य परमात्मनः तस्मिन् सर्वे वयम् चापि यस्मिन् सर्वे दिवौकसः यस्मिन् सूर्यश्च सोमश्च यस्मिन् इन्द्रश्च पावकः यस्मिन् वायु मातरिष्व यत्राकाशः प्रजापतिः यत्र अपो यत्र पृथ्वी यत्र सर्वम् प्रतिष्ठितम् तदेकम् परमम् ब्रह्म ज्योतिर्निर्मलम् अक्षरम्
87 रिपीट
तद्विज्ञाय कृतिमर्त्य भवेन्नान्येन हेतुना देहात्मबुद्धि यावत् स्यात् अस्माकम् देहधारिणाम् तावद्दासवत् अस्माभिः वर्तितव्यम् परात्मनि यदा प्रतीचि दृष्टि स्यात् अस्माकम् तत्त्वदर्शिनाम् तदा दास्यान् महादुःखात् विमुक्तिस्तु प्रजायते परतन्त्रे कुतः सौख्यम् स्वातन्त्र्यम् मुक्तिरुच्यते प्राज्ञः स्वतन्त्रो भविता विना देहाभिमानिनम् देहाभिमानित्वा शाभि सर्वाभि स प्रदूषितः आदौ स्वमनसो दास परेशां भविता ततः मनो येन जितं तस्य दास्य दुःखं विनश्यति.
वर्स 92.
अकामस्य कुतः किं वा भवितव्यं महात्मनः इदं विज्ञाय यः शास्त्रं यथोक्तं वेदम् आचरे शतभेद सलभते महेश्वर पदामृतं ऋषिभिः वामदेवादौ यद्द्रष्टं मन्त्रदर्शिभिः तस्य शास्त्रस्य सारोऽयं मया संगृह्य कीर्तितः अस्माभिः सकलै मान्यो भगवान् बादरायणम् एनार्थवन्ति सूत्राणि चक्रिरे तत्त्वदर्शिनः सचापि भगवान् मान्य शंकरः लोकशंकरः येन व्यासस्य सूत्राणां कृतसाद्वर्तनिर्णय तं च रामानुजं वन्दे प्रपत्तिर्येन दर्शिता विचार्य सकलं शास्त्रं भक्तानुग्रहकाम्यया अंशावतार पवनस्य वन्द्यं मध्वस्य माध्वी तुलितोक्तियुक्त यो भेदवादं कथयन् जडानां सर्वोत्तमत्वं स्वभुवो भवान् शंकरं कथितो ज्ञानी योगी रामानुजो मतः हरेश्चरणपाथोज किंकरो मध्व उच्यते माध्वा दासा महाविष्णो शेषशिष्यास्तु योगिनः शांकरा ज्ञानिनः प्रोक्ता विना देहाभिमानिनम् ब्रह्मदास्येन योगेन ज्ञाने च मनीषिणः अर्चयन्तश्च ब्रह्मदास्येन योगेन ज्ञानेन च मनीषिणः अर्चयन्तश्चिन्तयन्तः प्राप्नुवन्तीति मे मतिः.
वर्स 101 लास्ट.
वेदांत शास्त्र शतकान् सुचिरं विचार्य यास्कस्य वेद विदुषो मतमादधान क्षेत्रे फणीश्वर कला जनितस्य पुंसो घंटा शतम गणपतिः कथयाम् बभूवः इति श्री रमण भगवत पाद पूज्य शिष्य गणपति पंडित कृतम घंटा शतकम् समाप्तम्.